एष रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ प्रधानमन्त्रिणः केपी शर्मा ओलिनः चीन भारत देशयोः भ्रमणस्य पूर्वकार्यम् जायमानमस्ति इति सूचयति। मन्त्री परिषदः उपवेशस्य निर्णयान् सार्वजनिक कुर्वन् संचार सूचना प्रविधि मन्त्रालये ह्य आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता च संचार मन्त्री गुरूङ द्वाभ्याम् प्रतिवेशिभ्याम् राष्ट्राभ्याम् भ्रमणस्य कृते निमन्त्रणम् प्राप्तमस्तीत्यतः नेपालस्य पक्षतोऽपि आवश्यकम् पूर्वकार्यम् विधीयमानमस्तीति असूचयत्। प्रधानमन्त्रिणः भ्रमणस्य विषये संचारकर्मिणाम् जिज्ञासायाम् मन्त्री गुरूङ चीनदेशे आयोक्ष्यमाणे सांघाईको अपरेशन अर्गनाइजेशन इति संस्थायाः उपवेशे भागम् गृहीत्वा प्रत्यावर्तनानन्तरम् प्रधानमन्त्री ओली अस्यैव भाद्रमासस्य एकत्रिंशे दिवसे दिनद्वयाय भारतदेशं प्रति गमिष्यति इति अज्ञापयत्। मन्त्री गुरूङ प्रधानमन्त्रिणः भ्रमणस्य विषये अधुनावधि औपचारिको निर्णय न जातोऽस्ति इति प्रावोचत्। अत्रान्तरे भाद्रमासस्य द्वितीय दिवसे उपविष्टेन मन्त्री परिषदः उपवेशेन केषाञ्चित् देशानां भ्रमणस्य निर्णयेन सहैव कोटेश्वर इन्टरसेक्शन सुधारा योजनायाः क्रियान्वयनाय जापान सर्वकारात् प्राप्तं चतुस्त्रिंशत अब्जानाम् एकोनपञ्चाशत कोटीनां च जापानदेशीय एन मुद्राणां सौविध्यपूर्णं ऋण सहयोगं स्वीकर्तुं निर्णीतमस्ति। एवमेव मन्त्री परिषदः उपवेशेन नेपाल सुरक्षण प्राधिकरण संचालक समितेः अध्यक्षं शरद ओझा इत्यमुं पदमुक्तं विधातुं बालश्रमस्य निषेधस्य नियमनस्य कृते एतद् विक्रमवर्षीयस्य विधेयकस्य प्रारूपस्य निर्माणाय सैद्धान्तिकीं स्वीकृतिं प्रदातुम् एतद् विक्रमवर्षीयां राष्ट्रिय युवनीतिं स्वीकर्तुं मेलायोग सम्बद्धम् अष्टषष्ट्युत्तर द्विसहस्रतम विक्रमवर्षीयाधिनियमं संशोधयितुं निर्मितस्य विधेयकस्य संघीय संसदि प्रस्तुत्यर्थं स्वीकृतिं प्रदातुं च निर्णीतमस्ति इति मन्त्री गुरूङ असूचयत्। प्रतिनिधि सभायाः ह्यस्तनोपवेशेन बाल बालिका सम्बद्धम् एतद् विक्रम वर्षीयं प्रथम संशोधन विधेयकमाधृत्य विचार्यताम् इति निगद्य प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतोऽस्ति। महिला बाल बालिका ज्येष्ठ नागरिक मन्त्रिणा नवल किशोर शाह सुडी इत्यनेन प्रस्तुतं बाल बालिका सम्बद्धं विधेयकमिदं सभया सर्वसम्मत्या स्वीकृतमस्ति। विधेयकमाधृत्य विहिते सैद्धान्तिके विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् मन्त्री सुडी बाल बालिकानां क्षेत्रे दृष्टानां समस्यानां समाधानाय विधेयकमानितमस्ति इति असूचयत्। एवमेव उपवेशेन मानव क्रय विक्रय नयनानयन नियन्त्रण सम्बद्धं गत विक्रमवर्षीयं प्रथम संशोधन विधेयकं प्रकरणगत विमर्शनाय सम्बद्ध समितौ प्रेषितमस्ति। प्रतिनिधि सभायाः ह्यस्तनोपवेशे सांसदाः कुपेत देशे नेपाली श्रमिकाणां निधनस्य विषये ध्यानाकर्षणं विधाय मृतकानां शवान् आनेतुं विहितस्य प्रयासस्य तत्र स्थितानां श्रमिकाणाम् उपचारस्य च विषयं संसदने प्रस्तुतुं सर्वकारं याचितवन्तः। राष्ट्रियसभान्तर्गतायाः विधायन व्यवस्थापन समितौ अशीत्युत्तर द्विसहस्रतम विक्रमवर्षीयं संघीय सर्वकारीय सेवा विधेयकमाधृत्य प्रकरणगत विमर्शनं प्रारब्धमस्ति। समितेः ह्यस्तनोपवेशे सांसदाः सर्वकारीय सेवायां समावेशी समानुपातिक सहभागितायाः सुनिश्चयनस्य व्यवस्थां प्रस्तावनायां समावेष्टुं परामृष्टवन्तः। सांसदाः प्रतिनिधिसभातः पारितीकृतेन प्रतिवेदनेन सहिते विधेयके तत्काल क्रियान्वयनस्य व्यवस्था पूर्णवत् स्थाप्यते चेत् नियमावलिम् अपि सहैव प्रस्तुतुं सर्वकारं निर्दिष्टवन्तः। राष्ट्रियसभायाः अन्तर्गतायाः सार्वजनिक नीति प्रत्यायोजित विधायन समितेः उपवेशे ज्येष्ठ नागरिकाणां जीवनं सुरक्षितं सम्मानितं च विधातुम् आवश्यक सार्वजनिक महत्वस्य प्रस्तावस्य क्रियान्वयनस्य विषये विमृष्टम् वर्तते। सिंहप्रासादे ह्य उपविश्ये समितेः उपवेशे महिला बाल बालिका ज्येष्ठ नागरिक मन्त्री नवल किशोर शाह सुडी सामाजिक सुरक्षायाः सौविध्यं विपन्न वर्गाणां ज्येष्ठ नागरिकेषु केन्द्रीकर्तव्यमिति उदैरयत्। उपवेशे सांसदाः ज्येष्ठ नागरिक सम्बद्ध नीतेः कठोरेण क्रियान्वयनं विधेयं ज्येष्ठ नागरिकेभ्य सम्मानेन सुरक्षया च सह परिवारेण सहैव स्थितेः वातावरणस्य सर्जनाय प्रोत्साहनं प्रदातव्यमिति बलं दत्तवन्तः आसन्। सभामुखेन देवराज घिमिरे विधेयेन सह पाकिस्तान देशस्य संसदीय प्रतिनिधिमण्डलेन मेलवार्ता विहिता अस्ति। काष्ठमण्डपे सम्पन्ने हिन्दुकुश हिमालय संसदीय सम्मेलने सहभागी भवितुम् नेपालं प्राप्तेन पाकिस्तान देशस्य संसदीय प्रतिनिधिमण्डलेन ह्य सभामुखेन घिमिरे विधेयेन सह शिष्टाचार मेलवार्ता विहिता वर्तते। पाकिस्तान देशस्य सांसदस्य मुनाजा हसन इत्यस्य नेतृत्वे आगतस्य प्रतिनिधिमण्डलस्य स्वागतं विदधानः सभामुख घिमिरे द्वयो देशयोर्मध्ये व्यापार पारस्परिक सम्बन्ध पर्यटनानां सम्भावना स्थिति चर्चयन् तत्र संसदीय सहकार्यं कर्तुं शक्यते इति धारणां व्यक्तवान् आसीत्। परराष्ट्रमन्त्री डाक्टर आरजू राणा देउवा नेपाली महिलानां संघर्षेण महिलाधिकाराणां सशक्तिकरणस्य क्षेत्रे नेपाल वर्तमानोपलब्धयः अधिगताः सन्तीति प्रत्यपादयति। नेपाली कांग्रेस दलस्य भ्रातृ संस्थया नेपाल महिला संघेन पूर्वे दिह काष्ठमण्डपे आयोजिते कार्यक्रमे नेपाली कांग्रेस दलस्य नेत्री डाक्टर राणा उपलब्धिनां रक्षणं कृत्वा विधिगत सुनिश्चितां अर्थपूर्णां व्यावहारिकीञ्च विधातुं महिलाभि एव संघर्षकरणस्य अवस्था प्राप्तास्ति इति उदयरयत्। नेकपा एमाले दलस्य केन्द्रीय समितेः उपवेशः अस्यैव भाद्रमासस्य त्रयोदशे दिवसे आयोक्ष्यते। ललितपुरस्य च्यासलवर्तिने एमाले दलस्य केन्द्रीय कार्यालये अस्यैव भाद्रमासस्य त्रयोदशे दिवसे एकादशवादने केन्द्रीय समितेः उपवेशः आयोक्ष्यते इति एमाले केन्द्रीय कार्यालयस्य सचिवः डाक्टर भीष्म अधिकारी असूचयत्। उपवेशे द्वितीय विधान महाधिवेशनस्य पूर्वकार्यस्य महाधिवेशने प्रस्तोष्य माणस्य विधान संशोधन प्रस्ताव प्रतिवेदनस्य च विषययोः विमृक्ष्यते इति कार्यालय सचिवः अधिकारी असूचयत्। एमाले दलस्य द्वितीय विधान संशोधन महाधिवेशनम् अस्यैव भाद्रमासस्य विंशात् दिवसात् द्वाविंशं दिवसं यावत् ललितपुरे आयोजयितुम् एतत्पूर्वं निर्णीतं वर्तते। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा भाषते जनता एव देशस्य स्वामी अस्तित्यतः जनमतस्य सम्मानः कर्तव्यः। समाजवादी चिन्तकस्य विचारकस्य नेपाली कांग्रेस दलस्य नेतुश्च प्रदीप गिरी इत्यस्य तृतीय स्मृति दिवसस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे सभापतिः देउवा जनतायां दृष्टं नैराश्यम् अपाकृत्य जनतायाः मनसः विजयत्वेन कार्याणि विधातव्यानिति प्रावोचत्। तदवसरे सभापतिः देउवा समाजवादी चिन्तकस्य गिरी इत्यस्य पुस्तकैः रचनाभिश्च सह सम्पूर्ण कृतीनां संरक्षणं प्रकाशनञ्च कृत्वा जनता तै विषये बोधनीयाः इति अगदत्। कार्यक्रमे नेकपा एमाले दलस्य महासचिवः शंकर पोखरेलः नेकपा माओवादी केन्द्रस्य उपमहासचिवः वर्षमान पुन नेकपा एकीकृत समाजवादी दलस्य महासचिवः घनश्याम भूषालश्च स्वर्गीयं समाजवादी नेतारं गिरी इत्यमुम् अधिकृत्य विचारं व्यक्तवन्तः। एशिया पैसिफिक इंस्टीट्यूट ऑफ ब्रॉडकास्टिंग डेवलपमेंट इति संस्थायाः त्रयोविंशतितम साधारण सभातः नेपालः उपाध्यक्ष पदे निर्वाचितोऽस्ति। थाईलैंड देशस्य फुकेट नगरे आयोजितायां सभायां कार्यसमितेः अध्यक्ष पदे भारतस्य प्रसार भारती इति संस्थायाः प्रमुख कार्यकारीधिकृतः गौरव द्विवेदी उपाध्यक्ष पदे सार्वजनिक सेवा प्रसारण नेपालस्य कार्यकारी अध्यक्ष डाक्टर महेन्द्र विष्ट निर्वाचितौ स्तः।